సంతవేంద్ర విష్ణురను సంతరేమ నా కశ్య పిష్టమభి సంవసానో వైష్ణవీ లోక ఇహ మాదయంత కాత్యాయనాయ విద్మహి కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయా.
పురుషానహం అశ్వపూర్వాం రథమద్యాం హస్తినాద ప్రబోధినీం శ్రియం దేవీముపహ్వయే శ్రీమా దేవీ జుషతాం తాం సోస్మితాం హిరణ్య ప్రాకార మార్ద్రాం జయంతీం తృప్తాం తర్పయంతీం పద్మే స్థితాం పద్మవర్ణాం తామిహోపహ్వయే శ్రియం చంద్రాం ప్రభాసాం యశసా జ్వలంతీం శ్రియం లోకే దేవజుష్టాముదారాం తాం పద్మినీమీం శరణమహం ప్రపద్యే అల लक्ष्मीं मे नश्यतां त्वां मृणे आदित्यवर्णे तपसो दिजादो वनस्पतिस्तव वृक्षोद बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सगः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्यम् ददातु मे श्रुतिपाचावलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूदिमस वृद्धिम् च सर्वाम् निर्णुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् गणीषिणी ईश्वरीगुम् सर्वभूतानाम् तामिहो बह्वये श्रियम् मनसः काममाकूदिम् वाजः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीशयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लीदवस मे गृहे निज देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आर्द्राम् यत्करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः महावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रबुधम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यः शुचिप्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रिय पञ्चदशर्चम् च श्रीकामस्य ददम् जपेत् पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनम् मेजुषताम् देवी सर्वकामांश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरदम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्योधनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्रुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपे सदा वर्षन्तु ते विभावरी दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्म द्विषोचहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधत्स्व या पद्मासनस्ता विपुलकटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तरवरणमिता शुभ्रवस्त्रोदरीया लक्ष्मीर्दिव्यैर्गजेन्द्रै मणिगणगजितै स्नापिता हेमकुम्भैः नित्यम् ता पद्महस्ता मम वरदुर्हे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीर समुद्र राजतनयां श्रीरंगदामेश्वरीं दासी भूत समस्त देव वनितां लोकैकदीपाङ्गुरां श्रीमन्मन्द कटाक्ष लब्ध विभव ब्रह्मेन्द्र गंगाधरां त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रियां सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमबीजि मुद्रां करे महन्तीं कमलासनस्ताम् बालार्ककोटि प्रतिभां त्रिनेत्रां वरेहमाद्यां जगदीश्वरीं द्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषा शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो